समुद्रादुर्मिर्मधुमादुपां सुना समामृतत्वमाहानटे घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानामृतस्य नाभिः वयन्नाम प्रब्रवामा घृतस्यास्मिन् यज्ञे धारयामानमोभिः उपब्रह्मासेन वच्छस्य मानम् चतुःशृङ्गोपमे गौरयेतत् चत्वारि शृङ्गात्रयो अस्य बाधाद्वे शीर्षे सप्तहस्तासो अस्य त्रिधा बद्धो वृषभोरो रवीति महो देवो मध्याङ्गावीवेश त्रिधाहितम् पणिभिर्गुह्यमानम् गवि देवासो घृतमन्वरिन्दन् इन्द्र एकम् सूर्यजेकम् जजानभेनादेकम् स्वधजानिष्टचक्षुः एतार्षन्ति हृद्यात् समुद्राच्छतव्रजादिपुनानावचक्षे घृतस्य धारा अभिजागसीमिहिरण्ययो वेदसो मध्य आसाम् सम्यक् स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः एते अर्षन्त्यूर्मयो घृतस्य मृगादि पक्षिपनोरीषमाणाः सिन्धोरिवप्राध्वने सूघना सोपातः प्रमियः पतयन्ति जह्वाः घृतस्य धारो न वाजी काष्ठा भिन्दन्नोर्मिभिः पिन्वमानः अभिप्रवन्तसमाने वयोढाः कल्याण्या अस्मयमानासो अग्निम् घृतस्य धारा समिधो न सन्ततायूषाणो हर्यति जातवेदाः कन्यायिव वहतु मे तपावो अञ्जम् जाना अभिचाकसीमि यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभितत्पवन्ते अभ्यर्षदसुष्टुतिम् गव्यमाजिमस्मासु भद्राद्रवीणानि धत्त इमम् यज्ञम् न यतदेवता नो घृतस्य धारामधूमत्पवन्ते धावन्ते विश्वम्भुवनमधिश्रुतमन्तः समुद्रे हृद्या अन्तरायुषि अवामनीके समिधेयाभृतस्तमस्याममधूमन्तन्त भूर्मिम् विश्वेश्वराय नमः ओ अभोध्यग्निः समिधाजनानाम् प्रति धेनुमीवायति मुषासम् जह्वायैव प्रभजामुज्जिहानाः प्रभानवः शिश्रतेन गमच्छ अभोधिहोता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् समिद्धस्य रुषदर्शिवायो महान् देवस्तमसो निरमोचि यदीम् गणस्य रसनामजीकस्सुचिरम् पे शुचिभिर्गोभिरग्निः आदक्षिणायुज्य देवा जयन्त्युत्तानामूर्ध्वो अधयद्युगोभिः अग्निमच्छा देवयताम्मनाम् श्रिचक्षूंषि वसूर्ये सञ्चरन्ति यदीम् सुवा देवुषसा विरूपे श्वेतो बाजी गायते अग्रे अह्नाम् जनिष्ठैजेऽन्यो अग्रे अह्नाम् हितो हितेष्वरुषो वनेषु दमे दमे सप्तरत्ना दधा नोऽग्निर्होतानिषसा ताजीयान् अग्निर्होतान्यसीदद्यजीजानुपस्थे मातुः सूरभावु लोके युवा कविः पूर्वनिष्ठरुता वा धत्ता कृष्टीनामुतमध्य युद्धः प्रणत्यम् विप्रमध्वरेणु साधुमग्निम् होता रमेण ते नमोभिः आयस्तता नरोदसीलतेन नित्यम् ृजन्ति वाजिनम् घृतेन मार्जाल्यो मृज्यते स्वेदमूलाः कविप्रशस्तो अदितिशिवोराः सहस्रशृङ्गो वृषभस्ततो जाविश्वाङ्गग्ने सहसाप्यास्यन्याने सद्यो अग्ने अत्येष्यन्यानाभिर्यस्मै चारुतमो बभूथ ईवेण्यो वपुष्यो विभावा प्रियो विशामति धर्मानुषीणाम् तुभ्यम् भरम् दीक्षितयो यविष्ठबलिगणे अन्ति दवोदधूरात् आभन्दिष्ठस्य सुमतिम् चिगिद्धि बृहत्ते अग्ने महि शर्म भद्राम् आद्यरथम् भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् विद्वान् पथीनामुर्वान्तरिक्षमेह देवान् हविरद्याय वक्षि अवोचामकवये मेध्याय वचो बन्दारो वृषभाय वृष्णे ष्ठिरो नमसा स्तोममग्नौ दिवीव रुग्ममूरव्यम् च मश्रेत् कुमारम् माताजूपतिः समुद्धम् गुहा बिभर्ति न दधादिभित्रे अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ कमेतम् पञ्जूपते कुमारम् पेशी बिभर्षि महिषी जजान पूर्वीर्घरो भवर्धा पश्यन् जातम् यदसूतमाता हिरण्यदन्तम् सुजीवन्नमाराक्षेत्रातपश्यमायुधामिमानम् दानो अस्मा अमृतम् किम् मामानीन्द्राक्रीडवन्ननुत्थाः क्षेत्रादवश्यम् सनुतश्चरम् तम् सुमध्योधन्न पुरुषोभयमानम् न दाग्रभ्रन्न जनेष्टहिरः परिग्नीरिद्योपतयो भवन्ति के मे मर्यकम् विजवन्तगोभिर्न येषाम् गोपारनश्चिदास ीम् जगृहुरवते सृजन्त्वा जातिपश्वगुपनश्चिकित्वान् वसाम् राजानम् वसतिम् जनानामरातयो निजधर्मर्त्येषु ब्रह्माण्यत्रेरवतम् सृजन्तु निन्दितारो निन्द्यासो भवन्तु सुनश्चिच्छेमम् निदीदम् सहस्राद्युपादमुञ्चो असमिष्ठहिषः एवास्मदग्ने विमुग्धिपासान् होतश्चिकित्व जिहतु निषद्य ऋणीयमानो अपहिमदये प्रमे देवानाम् मृतपाहूवाच इन्द्रो विद्वाङ्कलहित्वा चक्षते नाहमग्ने अनुशिष्ठ आगा युज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा रादेवीर्मायासहसे दुरे वासिते शृङ्गे रक्षसे विनिक्षे उत स्वानासो दिविषम् पग्ने स्तिग्मायुधा रक्षसे हन्त बाहु मदेचिदस्य प्ररोजन्ति भामानवरन्ते परिबाधो अदेवीः एदम् ते स्तोमम् तु विजादविप्ररथन्नधीरस्वपाः अदक्षम् यदि लग्ने प्रदित्वम् देवहर्यास्वर्वतीरपयेनाजयेम ग्रीग्रीवो वृषभो वा वृधानो शत्वा हर्यः समजाति वेदाः इदीममग्निममृताः अवोचन् बलिषष्म ते मन वे शर्मायम् सद्धविष्म ते मन वे शर्मायम् सत् त्वमग्ने वरु नो जाजसे यत्त्वम् मित्रो भवसि यत्समिद्धः हे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय त्वमर्यमा भवसि यत्कनीनाम् नाम स्वधावन् गुह्यम् बिभर्षि अञ्जन्ति मित्रम् सुधीतम् न गोभिर्यद्दम्पती समानसा कृणोषि तपस्रिये मरुतोः मज्जयन्त रुद्रयत्तेजनीमचारु चित्रम् पतञ्जद्विष्णोः रूपमम् निधायितेन पासि गुह्यम् नाम गोणाम् तपस्रिया सुदृशोः देवदेवाः पुरुदधाना अमृतम् सपन्त होदारमग्निम् मनुषो निषे दुर्दशस्यन्त कुसिजस्संस मायोः न त्वद्भोता पूर्वो अग्नेयजीयान्न काव्यैः परो अस्ति स्वधावः विशश्च यस्यादिर्भवासि स यज्ञेन वनवद्देवमर्तान् वयमग्ने वलिया मत्वोताः वसूयवो हविषा बुध्यमानाः वयम् स वर्ये विदधेष्वह्नाम् वयम् राजा सहसस्पुत्रमत्तान् यो नागो अभ्येरोभरात्यधीरघमगसमम् से दधात जहीचीकित्तो हरिषस्य नेतामग्ने यो नो भक्षयति ध्वजेन स्याभ्युषि देवपूर्वे दूतम् कृम् पालायन्तः संस्थेयदग्नीयसेर्नीनाम् देवो मर्त्यैर्वसुभिरिध्यमानः अपस्पृथिपितरम् ज्योति विद्वान् पुत्रो यस्ते सहसो न भूहे कदाचीकृत्वो अभिचक्षसेनोऽग्ने कृतचिद्यातयासे भूरिणामबन्धमानो दधाति पिता वासो यदि गज्जोषयासे कुमिद्देवस्य सहसा जानः सुम्नभग्निर्वनते वा वृधानः त्वमङ्गजरितारञ्जविष्ठविश्वान्यज्ञे दुरितादिपर्षि सेना दृश्रम् कृपो जनासो ज्ञातकेतावृजिना भूवन् इमे यामासस्त्वदृगभूवन्वस मे पातदिदागो अवाचि नाहायमग्निरविसस्तये नो ललीष देवावृधानः परादात् त्वामग्ने वसुपतिम् वसूनामभिप्रवन्ते अध्वरेषु राजन् तया वाजम् वाजयन्तो जजे माभिष्यामपृत्सुतीर्मर्त्यानाम् हव्यमानग्निरजः पिता नो विभुर्विभावा सुदृशी को अस्मे सुगार्गवत्याः समिषो दिदीह्यस्मद्या संमीमिहि श्रवांसि विशाम् कविम् विश्वदिम् मानुषीणाम् शुचिम् पावकम् घृतपृष्ठमग्निम् त्रिगोदारम् विश्वमिदम् दधिध्ये स देवेषु वनते वार्याणि जुषस्वाग्नैलया सजोषायत मानो रश्मिभिः सूर्यस्य जुषस्व नः समिधम् जातवेदा च देवान्धविरद्याय वक्षि ष्टोदमूनादिधिर्दुरोणजिमन्नो यज्ञमुपजाहि विद्वान् विश्वाग्ने अभियुजो विहत्या शत्रो यतामाभराभोजनानि वधे न दस्यम् रहिराजयस्वपजः कृण्वानस्तन्वे हे स्वायै निदर्षिजत्सहसस्पुत्र देवान् स्वो अग्ने पाहिनृतमवाजे अस्मान् भयम् ते अग्नमुक्तैर्विधेम भयम् भव्यैः पावकभद्रशोचे अस्मे रयम् विश्ववारमिन् वास्मे विश्वानिद्रवीणानि धेहि अस्माकमग्ने अध्वरम् जोषस्वसूनोद्रहव्यम् वयम् देवेषु सुकृतस्यामसन्मानस्त्रिवरूथेन पाहि विश्वानिलो दुर्गः जातवेदस्यन्धम् न नावादुरिदादिपर्षि अग्ने अत्रिवन्नवजाग्नानो ओस्माकम् बोध्यमिता तनूनाम् यस्त्वा हृदाकीरिणामन्यमानो मर्त्यम् मर्त्योजो हवीनि जातवेदो यशो अस्मासु देहि प्रजाभिरग्ने अमृतत्वमस्याम् यस्मै त्वम् सुकृते जातवेदपुलोकमग्ने गृणवस्योरम् अश्विनम् सपुत्रिणम् वीरवन्तम् गोमनन्तम् ऋजुङ्गासते स्वस्ति सुसमिध्याय सोदिषे हृदन्तीव्रञ्जुहोदन अग्रजे जातवेदसे नरासंसुषूदीवम् यज्ञमदाभ्यः कविर्हि मधुहस्त्यः ईलितो अग्नावहेन्द्रम् चित्रमिह प्रियम् सुखैरथेभिरुदये पूर्णम् रदा विप्रतस्वाभ्या अर्कानूषत भवानः शुभ्रसादये देवीर्द्वारो विश्रायध्वम् सुप्रायनानाभूतये प्रप्रायज्ञम् प्रणीतन सुप्रतीकेव यो वृथा जह्वीरितस्य मातरा दोषा भुषा समीमहे वातस्य पद्मम् निरिता देव्या होदा रामनुषः इमन्नो यज्ञमागतम् इरा सरस्वती महि तिस्रो देवीर्वाजो भुवाः गर्हिस्येदन्त्वसृजाः शिवस्पष्टविहागहि विभुः कोटा उतत्मनाः यज्ञे यज्ञे न बुदाव यत्र वेत्थ वनस्पते देवानाम् दुह्यारामाणि तत्र हव्यानि गामय स्वाहाग्नजे वरुणाय स्वाहेन्द्राय मरुद्भ्यः स्वाहा देवेभ्यो हविः अग्निन्तम् मन्ये यो वसुरस्तम् यञ्जन्ति धेनवः अस्तमर्वन्त आदरोस्तन्नित्या सोभाजिनयुषम् स्तोतृभ्याभर सो अग्निर्यो वसुगृणे संयमायन्ति धेनवः समर्वन्तो रभद्रुपस्सं सुजातासः सूरजयिषम् स्तोतृभ्याभर अग्निर्हि वाजिनम् विषेदधाति विश्वदर्शिणिः अग्निराजे स्वाभुवंस प्रीतो यादिवार्जमिषम् स्तोतृभ्याभर आजे अग्निधीमहि जुमन्तम् देवाजरम् यद्धस्यादेपनीयसि सनिधीरयसीजरीषम् स्तोतृभ्याभर आदे अग्नर्जाहसि शुक्रस्य ज्योतिषस्पते सुश्चन्द्रदस्मविस्पदे हव्य भाग्दुभ्यम् भूयतयिषम् स्तोतृभ्याभर प्रोच्ये अग्नयोग्निषु विश्वम् पुष्यन्ति वार्यम् येहिन्विलेतयिषण्यञ्चानुषगिषम् स्तोतृभ्याभर तपत्ये अग्ने अर्चयो महिव्राधन्तवाजिनाः ये पत्वाभिः सभानाम् प्रजाभुरम् तको नामिषम् स्तोतृभ्याभर नभानो अग्नाभर स्तोतृभ्यः सुक्षितीर्षाः ते स्यामयानृजुस्त्वादूदा सोदमेदमयिषम् स्तोतृभ्याभर उभेदुश्चन्द्रसर्पिषो दर्वी श्रेणीष आसनि उतो न उत्पूर्या उच्चेषु समसस्पदयिषम् स्तोतृभ्याभर एवानग्निमाजुर्जमर्गीर्भिर्यज्ञेभिरानुषक् दध दस्मे सुवीर्य पुरत्यदा स्वस्यषम् स्तोतृभ्याभर सखाय संवत्सम्यम् च विषम् स्तोमम् चाग्नये वर्षिष्ठाय क्षितीनामोर्जो न त्रे सहस्वते कुत्राचिद्यस्य समृतौ रण्वानरो निषदने अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवाः संयधिषो वनामहे सम्भव्यमानुषाणाम् उतद्युम्नस्य सवसृतस्य रश्मिमादधे तस्माग्नोति केतुमानक्तम् चिद्दूरासते अवको यद्वनस्पतीम् अस्माभिना त्यजराः अवस्मयस्य वेषमे स्वेदम् पथिषु जुह्वति अभीमहस्वजेम्यम् भूमा पृष्ठे वरुरुः यम् मर्त्यः पुरस्पृहम् विदद्विश्वस्य धायसे प्रस्वादनम् विदूनामस्तदातिम् चिदाजवेः सहिष्णादन्वाक्षीदम् दादानरात्या वसुः हिरस्म स्वस्वचेतन् भृगुरणीभृष्टदपिडिः सुजिष्मयस्मा अद्रिवत्प्रस्वधीतिवरीयते सुषूरसूतमाताक्राणायदानसे भगम् आयस्ते सर्विरासुतेऽग्नेश्वस्त्रिधायसे ऐषुद्युम्नमुतस्रवा चित्तम् मत्येषुधाः इजेजन्मन्युमद्रिजस्वादातमा पशुम् ददे आदग्ने अपृणतो द्विश्वासह्यास्तस्यो निषस्वासह्यान्ृन् वामग्नृताय वस्समीधिरे प्रत्रम् रत्ना च भूतये सहस्कृत पुनश्चुण्डम् जयम् विश्वधाय सन्दमोदम् गृहपदिम्बरेण्यम् वामग्ने अदीचिम् पूर्जम् विशस्सोदिशेषम् गृहपदिन्दे गृहत्केतुम्बुररूपम् धनस्कृतम् सुवर्माणम् सुवसञ्चरद्विषम् वामग्ने मानुषीरीडते विशोहोत्राविधम् विवीचिम् रत्नधातवम् गुहासन्तम् सुभगविश्वदर्शदन्तविश्वरसम् सुयजम् गतश्रियम् वामग्नेनाम् विश्वदागदयम् येभ्यगृणन्तो नमसोपासेदिम ङ्गिरो देवो मत्तस्य यशसा सुधीतिभिः त्वमग्ने पुरुरूपो विषेवि सेवयो दधासि प्रत्नथा पुरुष्टुत पुरोऽन्यन्नासहसा विराजसित्विषस्वादेत्विषानस्य नादृशे वामग्ने समिधानम् य विष्टदेवादूतम् च क्विरेहव्यवाहनम् पुरुद्रज सङ्घृतयो निमाहूतम् तेषम् चक्षुर्दधिरे चोदयन्माति वामग्ने प्रतिमाहूतम् घृतैः सुम् नायवस्सुषमिधासमीधिरे समावृधानपोषाधिभिरुक्षितो ओभिद्रयाम् शिवार्थिवा विदिष्ठसे भद्रम् नो अपि वातयमनाः हरिः ओमग्ने अविष्मन्तो देवम् वत्ता सयीलते मन्ये त्वा जातवेदसंसहव्यावक्ष्यानुषक् अग्निर्होतारास्वक्षयस्य वृत्तपरिषः संयज्ञासश्चरम् दियम् संवाजासश्रवस्य वा उपदस्मयम् शिशुम् यथा न पञ्चनिष्ठारणी धर्तारम् मानुषीणामिधिसामग्निम् स्वध्वरम् उतस्मदुर्गृहीयसे पुत्रो नह्वार्याणाम् गुरुयो लब्धा जीवनाग्नेः पशुर्नयपसे अध स्मयस्यार्चयः सम्यक् संयन्ति धूमिनाः यदि महत्कृतो दिव्युपध्वादे वधमधिशिशीलेध्वादरी यथा तपाहमग्नभूतिभिर्मित्रस्य च प्रशस्तिभिः द्वेषो युतो न दूरिता दुर्जामवत्यानाम् अन्नो अग्ने अभीरो रजम् सहस्वाभरात् सक्षेपयत्सपोषयद्भुपद्वाजस्य सातज उतैधि पृत्सुनो वृधे अग्रवो ज्येष्ठमाभरज्ञम् नमस्मभ्यमद्रिगो ऋणो राजा बलेन सारथ्शिवाजाय पन्था त्वन्नो अग्ने अद्भुतक्रत्वा दक्षस्य मम्भना त्वे असुर्या अमारुहत्राणा मित्रो न यज्ञियाः त्वन्नो अग्नयेषाङ्गयम् पुष्टिम् च वर्धय ये स्तोमेभ्यप्रसूरजो नरो मघान्यानसुः ये अग्ने चन्द्रते किल शुम्भन्त्यस्वराधसः सुष्मेभिः सुष्मिनो नरो दिवश्चिद्येषाम् मृगत्सु कीर्तिर्बोधदित्मना तमर्त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुजा परिज्ञानो न विद्युतः स्वानो रथो न वाजयुः नूनो अग्नभूतये सबाधसश्च रातये अस्माकासश्च सूरजो विश्वासास्तरीषणि अनुनो अग्ने अङ्गिरस्तुतस्तवाणाभर होदर्विभ्वासहम् त्रयम् स्तोत्रभ्यस्तवसे च न उतैः पृत्सुनो हृदे जनस्य गोपाजनिष्ठजाग्रीभिरग्निः सुदक्षस्वपिता जनव्यासे घृतप्रातीको बृहतादिभिस्मृसाद्युमद्विभादिभरदेभ्यः श्रुतिः यज्ञस्य केतुम् प्रथमम् पुरोहीतमग्निम् नरस्तृषधस्ते समीधिरे इन्द्रेण देवैः सरथम् स बर्हिषिषीदन्निहोताय यथाय सुक्रतुः असंमृष्टो जायसे मात्रोऽस्य चर्मन्त्रः कविरुदतिष्ठो विवस्वतः घृतेन त्वावर्धयन्नग्न आहुतधूमस्ते केतुरभवद्दिविसृतः अग्निर्नो यज्ञमुपावेतु साधुजाग्निर्नरो विभरन्ते गृहे गृहे अग्निर्दूतो अभवद्धव्यवाहनोऽग्निम् वृणानावृणते कविक्रतुम् तुभ्येदमग्ने मधुमत्तमम् वचस्तुभ्यम् मनीषायमस्तु संहृते ङ्गिरस्सिन्धूमिवावनीर्महीरा प्रीणन्ति सपसा बद्धयन्ति च त्वामग्ने अङ्गीरसो गुहाहितमन्दाविन्दाञ्छिश्रियानम् वने वने सदायसे मध्यमानः सहो महत्त्वामाहुस्वहस्पुत्रमङ्गिरः प्राग्नये बृहते यज्ञयाजऋतस्य वृष्णे असूरायमन्म घृतन्न यज्ञास्ये सुभूतम् गिरम् भरे विषभाज प्रतीचीम् ऋतम् चीकृत्वमिच्चीकृद्धृतस्य धारा अनुतृन्धि पूर्वीः नाहम् यातुम् सहसा न ध्वजेन ऋतम् स पाम्यऋषस्य कृष्णाः या नो अग्नऋतयम् ऋते न भुवो न वेदा भुजतस्य नव्याः वेदा मे देवऋतुपालऋतूनाम् नाहम् पतिम् सनिधुरस्य राजः केने अग्नेरिपवे बन्धना सके पाजवः सनिषन्तद्युमन्ताः के धासिमग्ने अनृतस्य पान्तिकाः स दोवचसः सन्ति गोपाः सखायस्ते विषूणा अग्नये ते शिवासः सन्तो असीवा अभूवन् अधूर्षदस्वयमेते वचोभिर्मृजूयते वृजिनानि ब्रुवन्ताः यस्ते अग्ने नमसा यज्ञमीट्ट ऋतम् सपात्य ऋषस्य विष्णाः तस्य क्षयः प्रसुरा साधुरे दुःप्रसर्षाणस्य न पूर्णस्य चेषाः अर्चन् स्वाहवामहेऽर्चन्तः समी धीमहि अग्ने अर्चन्तभूतये अग्ने स्तोमम् वनामहे शीघ्रमद्यति विस्मृशाः देवस्य द्रविणस्य वाः अग्निर्जोषतनो गिरोताजो मानुषेष्व सजक्षत्री व्यञ्जनम् त्वमग्ने सप्रधा असि जुष्टो तावरेण्यः त्वया यज्ञम् वितन्वते त्वामग्नेवाजसाद मम् विप्रावर्धन्ति सुष्ठूतम् सनोरास्वसुवीर्यम् अग्नेमिरान्तीपदेवान् समम् परिभूरसि आराधश्चित्रवृञ्जसे अग्निम् स्तोमेन बोधय समिधानो अमर्त्यम् हव्या देवेषु नो दधत् तमध्वरेष्वीलते देवम् मर्ता अमर्त्यम् यष्ठम् मानुषे जने तम् हि तस्वम् तयीलते श्रुता देवम् घृतश्रुता अग्निम् हव्याय बोधवे अग्निर्जातो अरोचदघ्नम् तस्यो ज्योतिषातमः अभिन्दग्गा अपस्वाः अग्निवीणेण्यम् कविम् घृतपृष्टम् सपर्यत भेदु मे शृणबद्धवम् अग्निम् घृतेन वावृधस्तोमेभिर्विश्वदर्शणिम् स्वाधीभिर्वचस्रुभिः प्रभेदसे कवजे वेद्याजैरम् भरयसे पूर्याय घृतप्रसत्तो असूरस्वसेवो राजो धर्ता धर्णो वस्वो अग्निः घृतेन ऋतम् धर्णम् धारयन्त यज्ञस्य साके परेव्यो मन् दिवो धर्मम् धर्णे सेजुषोण्ड्रे जातैव जाताम् अभिजेन रक्षुःस्तन्वस्तन्वदेविवयो महद्दुष्करम् पूर्याय सम्वतो नवजातसुदुर्जात्सिंहन्न क्रुद्धमभितः परिष्टुः मा देवयद्भरसे पप्रधानो जनम् जनम् धाजसे चक्षसे च भयोपयोजनसे गद्दधानः परित्मनाविषुरूपो जिगासि वाजो नु देशपसस्वात्त्वम् तपुरुम् दोहम् धर्णम् देवराजः परन्नताजर्गुहादधानो मो राजे चिदयन्नत्रीमस्वः बृहद्वजो हि भारवेर्चा देवानाग्ने यम् मित्रम् न प्रदत्ते धर्मता सोदधिरे पुरः स हि द्युभिर्जनानाम् गोता रक्षस्य बाहोः निहव्यमग्निरानुषग्भगो न वारमृण्वति अस्य स्तोमे मघो नः सख्ये वृद्धसो जिषः यस्मिन् तु विश्वनिसमर्जे सुष्मादधुः तथाव्यग्नजेषाम् सुवीर्यस्य मम्भनाः तमिद्यक्मन्नरोदसी परिश्रमो बभूवधुः नूनये हि वार्यमग्ने गृणान आभर ये भयम् ये च सूरयः स्वस्ति धामहे सचोदैः मृत्सुनो वृधे आ यज्ञैर्देवमत्यजित्थातव्याम् समूतये अग्निम् कृते स्वध्वरे पूरुलीलीतावसे अस्य हि स्वयसस्तर आसाविधर्मन्मन्यसे अन्नाकम् चित्रशोचिषम् मन्त्रम् परोमनीषया अस्य वासावु अर्चिषाय आयुक्तदुजा गिरा जीवो नयस्य वेदसा बृहच्छोचम् चर्चयाः अस्य क्रत्वा विचेदसो दस्मस्य वसुरथा अथा विश्वासुहव्योऽग्निर्विक्षुप्रशस्यते नूनैद्धिवार्यमासन्तसूरजाः ऊर्जो न पादभिष्टाय पाहि सद्भिः स्वस्तय उदैः मृत्सुनो वृधे प्रातरग्निः पूरुप्रियो विशस्त वेदादिः विश्वानियो अमर्त्यो हव्यामर्त्येषुरण्यजि द्विताय नृतवारसे स्वस्य लक्षस्य मम्भरा इन्दम् स धत्वा नृढः स्तोताचित्ते अमर्त्य स तम्मो दीर्घायु शोचिषम् गिराहु वे मघोराम् अरिष्टो जेषाम् रसोऽव्यसुरावनन्नीयते चित्रावायेषु दिधिलासम् मुक्थावान्ति ये स्तीर्णम् बर्हिः स्वर्णरे श्रवांसि दधिरे परि ये मे पञ्चासुरम् ददुरस्वानाम् सधस्तूति युमदग्ने महिश्रवो बृहत्क्रीधि मघोनाम् द्रवतमृतनृणाम् अभ्यवस्ताः प्रजायन्ते प्रभव्रेर्भवृश्चिकेत उपस्थे मातुर्विचष्टे जुहुरे विचिदयन्तो निमिषम् भ्रम्णम् पान्ति आदृढाम् पुरम् विविशुः आश्वैत्रेयस्य जन्तवोद्युमद्वर्धन्त कृष्टयाः निष्कग्रीवो बृहदुग्धये नामध्वारवायुः द्वयम् दुग्धम् न काम्यमजामि जाम्योऽस्य चा धर्मो न वाच जठरो लब्धस्य स्वतोदभाः क्रीडन्नो रस्मा भूवः सम्भस्म न वायुना वेवीदानः ताश्च सन्दृढजो न दिग्माश्रुसंसिता वक्ष्यो वक्षणे स्थाः यमग्ने वाजसा तमत्वम् चिन्मन्यसे हृयम् तम् नो गीर्भिः सवाह्यम् देवत्रापनजायुजम् ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य समासः अपद्वेषो अपह्वरोऽन्यव्रतस्य सश्चिरे होतारन्तावृणीमहे ज्ञे दक्षस्य साधनम् यज्ञेषु पूर्व्यम् गिरा प्रियस्वन्तो हवामहे इच्छा यथातभूतये सहसामन्ति मे दीवे राजहृताय सुक्रतो गोभिश्याम सधमालो वीरैः स्याम सधमादाः मनुष्वत्वानि धीमहि मनुष्वत्समी धीमहि अग्ने मनुष्वदम् गिरो देवान् देवयते यज त्वम् यमानुषे जनेऽग्ने सुप्रीत युध्यसे सृजस्वायम् जानुषत्सुजातसर्पीरासुते त्वाम् विश्वे सजोडसो देवासो दूतमक्रत सपर्यन्तस्त्वाकवे यज्ञेषु देवमीलते देवम् वो देव यज्ञयाग्निमीलीतमर्त्याः समिद्धः शुक्रदीजिह्रजस्य यो निमासदः सदस्य यो निमासदः प्रविष्टदामन्न त्रिवदच्चा पापकसोजिषे यो अध्वरेष्वीढ्यो होता मन्द्रतमो विशि अग्निम् जातवेदसम् दधाता देवमृत्विजम् प्रयज्ञये त्वानुषगद्या देवव्यचस्तमः चिकित्विन्मानसम् त्वा देवम् मर्ता स भूतये वरेण्यस्य देव स हि जानासो अमन्महि अग्ने चिकिध्यास्य न जिदम् वचः सहस्य तम् त्वा सुप्रलम्बते स्तोमैर्वर्धङ्कत्र योगीर्भिः शुम्भन्त्यद्रयः अग्ने सहन्दमाभारद्युम्नस्य प्रासहारयम् निःश्वायश्च ऋषणीरभ्या आसावाजेषु सासहत् अवमग्ने मृतनाथहम् त्रयम् सहस्वाभर सत्यो अद्भूतो दाता वाजस्य गोमतः विश्वे हि त्वा सजोषसो जनासो वृक्तपर्हिणः होदारम् सद्म सुप्रियम् यन्ति वार्या पुरु सहिष्मा विश्वदर्शनिरभिमादिसहो दधे अग्नये वृक्षयेष्वारेवन्नः शुक्रदीदिहिद्युमत्पावकदीदिः अग्ने त्वम् नो अन्तमबुदत्राता शिवो भवावरूच्याः वसूरग्निर्वसुस्रवाच्छा रक्षज्युमत्तमम् रयुन्दाः ृतिहवृषाणो अगागत सस्मात्तिष्ठतीवसुम्नाय नूनमीमहे सखिभ्य अच्छा वो अग्निमवसे देवं राशिशनोपसूः सत्पुत्रवेषु नामृता वा परिषति द्विषः सहि सत्योऽयम् पूर्वे चिद्देवासश्चिद्यमीधिरे होदारम् मन्त्रजिह्वमित्सुधीतिभिर्विभावासुम् स नो धीतिवरिष्ठया श्रेष्ठया च सुमत्या अग्ने राजोजीदीनः सुवृत्तिभिर्वरेण्य अग्निर्देवेषु राजत्यग्निर्मध्येष्वाभिशन् अग्निर्नो हव्यमाह नोऽग्निम् दीभिः स पर्यत अग्निस्तु विश्रावस्तमम् तुमि ब्रह्माणमुत्तमम् अतूर्तम् श्रावयत्पादिम् पुत्रम् ददाति दासुषे अग्निर्ददाति सत्पादिम् सासाहयो युधा गृभिः अग्निरत्यम् रघुष्यतम् चेतारमपराजितम् यद्वाहिष्ठम् तदग्नेः बृहदर्च विभावसो महिषीवद्वद्रयस्तद्वाजाबुदीरते तद्युमन्तो अर्चयो ग्रावेवोच्यते बृहद् उतो ते तन्यतुर्यथा स्वानो अर्थत्मनादिवः एवा अग्निम् वा सूयवः सहसानम् वा वन्दि वा स नो विश्वादिद्विषः पर्षन् नावेव सुक्रतुः अग्ने पावकरोजिरा मन्त्रयाः देवजिह्वया आदेवान्वक्षियक्षीत तम् वा घृतस्नवीमहे चित्रभानो स्वदृशम् देवाम् आवीतयेवः ीहोत्रम् पागवे युवन्तम् समीधीमहि अग्ने बृहन्तमध्वरे अग्ने विश्वेऽभिलागहि देवेभिर्हव्यदातये होतारम् पावृणीमहे यजमानाय सुन्दराग्ने सुवीर्यम् वः देवैरासत्सि बर्हिषि समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि देवानाम् दूतमुख्याः ज्ञाग्निम् जातवेदसंहोत्रवाहम् जविष्ठ्यम् जाता देववृत्विजम् प्रयज्ञे त्वानुषगद्या देवव्यतस्तमः श्रीतबर्हिरासदे एदम् मरुतो अश्विना मित्रस्यीदन्तु वरुणः देवासः सर्वया विशा